ॐ नारायण परब्रह्म सर्वकारणकारणम् प्रपज्ये वेङ्कटेशाख्यम् तदेव कवचम् मम सहस्रशीर्षाः पुरुषो वेङ्कटेशशिरोवधो प्राणेशः प्राणनिलयः प्राणम् रक्षतु मे हरिः आकाशराक्षितानाथ आत्मानम् मे सदा वदु देवदेवोत्तमः आयद्देहम् मे वेङ्कटेश्वर सर्वत्र सर्वकालेषु मङ्गलम् वाजानिरीश्वरः पालयेन्मामकम् कर्म साफल्यम् न प्रयच्छतु येतद्वज्रकवचम् अभेज्यम् वेङ्कटेशितु सायः प्रातः पठेत् नित्यम् मृत्युम् तरति निर्भयः
ॐ नमो वेङ्कटेशाय नमः।